Professor S.T. Nagaraj, who addressed a workshop of Sanskrit teachers, he indicates the goal where all these spoken Sanskrit campaign should reach.
अस्मिन् विशिष्टे सन्दर्भे परीक्षा भाषा गङ्गा आन्तः आन्तम् येन मठात् प्रवृत्तानिति निरूपयितुं कतिचन रजःकुसुमानि भवतां पुरतः उपहारी कर्तुम् अहं विशिष्ये बान्धवाः एषा भाषा पुनरस्तीति विलज्यमाना दूरवाणीति उपास्यमाना निर्वाणवाणी रोष्यमाणा भाषा संस्कृता अनुपमा विद्या निर्वाणवाणी एवं विद्युदे तैत्तरीयसंहितायां तादृशः कश्चन कालः आसीत् यस्मिन् काले सैषा वा अज्ञाता आसीत् प्रकृतिप्रत्यये विभागरहिता वाग्वैमराज्यं व्यापतावदत्तानुन्द्रो वर्ध्यतो भक्तं यव्यापतोस्तत्त्वाद्यं जातता वा उच्यते इति संहितायां कश्चन प्रसङ्गः उच्यते कदाचिदेषा वा अव्याप्ता आसीत् सर्वेऽपि